First chapter, 11th shloka. Ayaneshu, ayaneshu, chasarveshu, chasarveshu, yathabhagamavasthitaha, yathabhagamavasthitaha, ayaneshu chasarveshu, ayaneshu chasarveshu, यथाभागमवस्थिताः यथाभागमवस्थिताः भीष्म भीष्म मेवाभि मेवाभि रक्षन्तु रक्षन्तु भवन्तः भवन्तः सर्व एव हि सर्व एव हि भीष्ममेवाभिरक्षन्तु भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि भवन्तः सर्व एव हि अयनेषु च सर्वेषु यथा भागमवस्थिताः अयनेषु च सर्वेषु यथाभागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि